शमस्तमम् ज्येष्ठदारं ब्रह्मणां ब्रह्मणस्पदानश्रृण्वन्नो जगस्येदसादनम् ॐ महागणपतये नमः भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गे सुष्ठुवागंसस्तनोभिः विषेम देवहृदयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्टनेभिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ अथ गणेशाथर्वशीर्षं व्याख्यास्यामः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं हृदं भस्मि सत्यं भस्मि अवत्वं माम् अवभक्तारम् अवश्रोतारम् अवधातारम् अवधातारम् अवालोचानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात्तात् अवदक्षिणात्तात् अवचोर्ध्वात्तात् अवाधरात्तात् सर्वतो मां पाहि पाहि समन्तात् त्वं वाङ्मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दात्वितेजोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदिदं तत्त्वो जायते सर्वं जगदिदं तत्तस्तिष्ठति सर्वं जगदिदं त्वयि लयमेष्यति सर्वं जगदिदं त्वयि प्रत्येति त्वं भूमिरापो नलो निलो नभः त्वं चत्वारि वाक्पदानि त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः त्वं देहत्रयातीतः त्वं कालत्रयातीतः त्वं मूलाधारस्थितोऽसि नित्यं त्वं शक्तित्रयात्मकः त्वां योगिनो ध्यायन्ति नित्यं त्वं ब्रह्मा त्वं विष्णस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवस्वरो गणनादीं पूर्वमुच्चार्य वन्नादीं तदनन्तरम् अनस्वारः परतरः अर्धेन्दुरसितं तारेण रुद्धम् एतत्तममनस्वरूपं गकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपं बिन्दुरुद्धररूपं नादः सन्धानम् सगुम्भिला सन्धिः सैषा गणेश विद्या गणक ऋषिः विसृद्गायत्री छन्दः श्रीमहागणपतिर्देवता ॐ गङ्गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् रदञ्जमलदं हस्ते विभ्राणं मोषकध्वजं रक्तं लम्बोदरं शोत्पकर्णकं रक्तपाससं रक्तगन्धानुलिप्तान्तम् रक्तपुष्पैः सुपूजितम् भक्तानुकम् पिनम् देवम् जगद्गाननमच्युतम् आविर्भूतम् च सृष्ट्यादो प्रकृतेः पुरुषात्परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः नमो व्रातपदये नमो गणपदये नमः प्रमथपदये नमस्ते अस्तु लम्बोदराय एकदन्ताय विघ्नविनाशिने श्रीमन्ताय श्रीवरदमूर्तये नमो नमः एतदथर्वशेषयोधीते स ब्रह्म भूयाय कल्पते स सर्वदः सुखमेधते स सर्वविघ्नैः न बाध्यते स पञ्चमहापापात् प्रमुच्यते सायमधेयानो दिवसकृतम् पापम् नाशयति प्रातरधेयानो रात्रिकृतम् पापम् नाशयति सायम् प्रातः प्रयुञ्जानो पापो पापो भवति सर्वत्राधेयानोपविद्धो भवति धर्मार्थकाममोक्षम् च विन्दति इदमसर्वशेषमशिष्याय न देयम् यो यमोहाद्धास्यति स पापीनाम् भवति सहस्रावर्धनाद्येयम् काममधीते दन्तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स पापी भवति चतुर्थ्यामनश्नम् जपति स विद्यावान् भवति इत्यथर्वणभाग्यम् ब्रह्माद्यावरणम् विद्यात् अभिभेदि कदा जनेति यो दूर्वाङ्गुरे भजति स वै श्रवणोत्तमो भवति यो राजे भजति स यशोवान्भवति स मेधावान्भवति यो मोदकसहस्रेण यजति समाच्युतफलमवाप्नोति यः साध्यः समिद्धर्यजति स सर्वल्लभते स सर्वल्लभते अष्टौ ब्राह्मणा सम्यक् ग्राहयित्वा सूर्यवर्चस्वे भवति सूर्यग्रहे महानद्याम् प्रतिमासन्निधौ वा दत्त्वा सिद्धमन्त्रो भवति महाविघ्नाः प्रमुच्यते महादोषाः प्रमुच्यते महापापाः प्रमुच्यते महाप्रत्यवायाः प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति देवम् वेद इत्युपनिषत् ॐ भद्रम् कर्णेभिः शृणुयामदेवाः भद्रम् पश्ये माक्षभिर्विजत्रा चिरैरङ्गैः सुष्ठुवागंसष्टनोभिः यशेम देवहि दैयलायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो वरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः।